अस्य श्री भगवदादित्य स्तोत्र महामंत्रस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः सूर्यनारायणो देवता सूं बीजं यं शक्तिः मम कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः आदित्याय अंगुष्ठाभ्यां नमः अरुणाय तर्जनेभ्यां नमः दिवाकराय मध्यमाभ्यां नमः प्रभाकराय अनामिकाभ्यां नमः सहस्रकिरणाय कनिष्ठिकाभ्यां नमः मार्तांडाय करतलकरपृष्ठाभ्यां नमः एवं हृदयादिन्यासः भूर्भुवः सुवरोमिति दिग्बन्धः
ध्यायेत् सूर्यमनन्तकोटिकिरणं तेजोमयं भास्करम् भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम् भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डम् आद्यं शुभम् संसारभयनाशनः ब्रह्मस्वरूपबुधये मध्याह्नेतु महेश्वरः हस्तकाले स्वयं विष्णुः त्रयी मूर्तिर्दिवाकरः हस्तकाले स्वयं विष्णुः त्रयी मूर्तिर्दिवाकरः एकचक्ररथो यस्य दिव्य कनकभूषितः सोऽयं भवतु नः प्रीतः पद्महस्तु दिवाकरः पद्महस्तः परं ज्योतिः परेशाय नमो नमः अण्डयो निर्महासाक्षी आदित्याय नमो नमः अण्डयो निर्महासाक्षी आदित्याय नमो Love. सन देवेश आदित्याय नमो नमः। धर्ममूर्तिर्दयामूर्तिः सत्त्वमूर्तिर्नमो नमः। सकलेशाय सूर्याय शान्तेशाय नमो नमः। क्षयापस्मारगुल्मादि दुर्दोषव्याधिनाशनम् क्षयापस्मारगुल्मादि दुर्दोषव्याधिनाशनम् सर्वज्वरहरं चैव कुक्षिरोगनिवारणम् एतत् स्तोत्रं शिवप्रोक्तं सर्वसिद्धिकरं परम् सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् इति श्री सूर्य